आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। आदौ मुख्य वार्ताः। संसदा सूक्ष्म लघु मध्यमोद्यम विकास संशोधन विधेयकं 26/26 पारितम्। प्रधानमंत्री नरेन्द्र मोदी अद्य स्वकीयावासे एनडीए संयुतौ नव सम्मिलितैः विविध सदस्यैः सह मिलितवान्। अनेन संसदि अनुक्षणं जायमानेषु व्यवधानेषु गहन चिन्ता प्रकटीकृता। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य नवदिल्ल्याः राष्ट्रपति भवने 25th 2000 राष्ट्रिय हस्त निर्मित तन्तुकला पुरस्कारान् प्रदत्तवती। अद्य भारतस्य उत्तर पश्चिम भागेषु अतिवृष्टिः अजायत। भारतस्य ग्रैंड मास्टर आर प्रज्ञानन्दः अमेरिका देशे आयोजितायां ग्रैंड चेस टूर सेंट लुइस रैपिड एंड ब्लिट्ज इत्यस्यां प्रतियोगितायां विजयं प्राप्तवान्। अपि च बैडमिंटन क्रीडायां भारतस्य क्रीडिके रक्षिता रामराज अथ अश्मिता चालिया च आसन्नगरे आयोजितायाः कोरिया मास्टर्स इत्यस्याः स्पर्धायाः महिलैकल वर्गे उपान्त्यचक्रे प्रवेशम् अलभिताम्। अथ वार्ताः विस्तरेण। संसदा सूक्ष्म लघु मध्यमोद्यम विकास संशोधन विधेयकं 26/26 पारितम्। अद्य लोकसभया एतद् विधेयकम् अनुमोदितम्। राज्यसभया एतद् गत सोमवासरे एव पारितमासीत्।
यह विधेयक भुगतान में होने वाली देरी को दूर करने और विवादों के समाधान की प्रक्रिया को आसान बनाने के लिए लाया गया है। इसके अनुसार हर केंद्रीय सार्वजनिक क्षेत्र के उपक्रम को सूक्ष्म लघु और मध्यम उद्यमों से खरीदी गई वस्तुओं या सेवाओं के सभी बिलों का भुगतान ऑनलाइन सिस्टम के माध्यम से करना होगा। विधेयक में यह भी प्रावधान है कि यदि विवाद की स्थिति में मध्यस्थता से समाधान नहीं निकलता तो 30 दिन के भीतर मामले के सुलह के लिए आर्बिट्रेशन के लिए भेजना होगा। इसके अलावा विधेयक में दंड का भी प्रावधान है। दीपेंद्र कुमार, आकाशवाणी समाचार, दिल्ली।
विधेयकस्य पारणानन्तरं पीठासीनाधिकारी दिलीप सैकिया विरोधं कुर्वद्भ्यः सदस्येभ्यः सदनस्य कार्याचरणं सुचारुरूपेण संचालने सहयोगं कर्तुम् आह्वानम् अकरोत्। व्यवधानानां विषये असौ असन्तोषं प्रकटयन् अवदत् यत् एतादृशः विरोधः देशस्य लोकतान्त्रिक व्यवस्थायै न शोभते। संसदीय कार्यमंत्री किरण रिजिजुः अपि विपक्षस्य आचरण विषये चिन्तां प्रकटयन् अवदत् यत् केन्द्रीय गृहमंत्री अमित शाहः संसदीय सत्रस्य अवधौ नियमित रूपेण संसदि उपस्थितः भवति तथा चिदरात्रिं यावत् सदने एव तिष्ठति। नैरन्तर्येण कोलाहल कारणेन पीठासीनाधिकारिणा सदनस्य कार्याचरणं सोमवासरे प्रातः 11:00 स्थगितम्। ततः पूर्वं प्रातः 11:00 सदनस्य कार्यारम्भे सति लोकसभाध्यक्षः ओम बिरला इत्येषः भारत छोड़ो आन्दोलन इत्येतस्य स्वतंत्रता सेनानिभ्यः अत दिवंगतेभ्यः च श्रद्धांजलिम् अर्पितवान्। महात्मनः गान्धिनः ऐतिहासिकं करो या मरो इत्याह्वानं स्मरन् असौ तम् आन्दोलनं राष्ट्रियैक्यस्य साहसस्य सत्यस्य अहिंसायाश्च चिरस्थायि प्रतीकम् इति प्रतिपादितवान्। तदनन्तरं लोकसभाध्यक्षः प्रश्नकालम् आरब्धुं प्रयत्नम् अकरोत् किन्तु विपक्षसदस्यैः छात्रान्दोलनेषु कथिता रक्षक कृत कार्यस्य विषयः उत्थापितः। विपक्ष सदस्याः अस्मिन् विषये केन्द्रीय गृहमन्त्रिणः अमित शाहस्य वक्तव्यं प्रार्थयन्तः आसन्। छात्रान्दोलनेषु कथिता रक्षकैः कृत कार्याणि नीट सम्बद्ध विभिन्न विषयं च समधिकृत्य विपक्षस्य कोलाहलात् राज्यसभायाः कार्याचरणम् अपि आदिवसं यावत् स्थगितम्। अपराह्णे 12:00 प्रथम स्थगनानन्तरं सदनस्य कार्याचरणं पुनः समारब्धम्। तदा सभापतिः सीपी राधाकृष्णन् विपक्षस्य कोलाहल मध्ये प्रश्नकालम् आरब्धवान्। अस्मिन् समये केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः रेल विभागे कवच सुरक्षा प्रणाल्याः तथा संकेत व्यवस्थायाः स्थापन सम्बद्धस्य प्रश्नस्य उत्तरं दातुं प्रयतितवान् किन्तु स्वोत्तरं सम्पूर्णतया प्रस्तोतुं न अशक्नोत्। नैरन्तर्येण कोलाहलकारणेन सभापतिना सदनस्य कार्याचरणं सोमवासरे प्रातः 11:00 स्थगितम्। इतः प्राक् प्रातः 11:00 सदनस्य समारम्भे सति सभापतिः सीपी राधाकृष्णन् अवदत् यत् अगस्तमासस्य 9 दिनांके भारत छोड़ो आन्दोलन इत्यस्य 84वां स्मृतिवर्षः वर्तते। सः अवदत् यत् एतद् आन्दोलनं महात्मनः गान्धिनः दूरदर्शिन नेतृत्वे आसीत्। सः एतदपि अवदत् यत् भारत छोड़ो आन्दोलन इति भारतस्य स्वातन्त्र्य संग्रामस्य महत्वपूर्णः कीर्तिस्तम्भः अस्ति, यः अद्यापि देशभक्तेः राष्ट्रियैक्यस्य अथ निःस्वार्थ राष्ट्रसेवायाः च आदर्शैः युवकान् प्रेरयति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमंत्री नरेन्द्र मोदी अद्य स्वकीयावासे एनडीए संयुतौ नव सम्मिलितैः विविध सदस्यैः सह मिलितवान्। एतेषु राष्ट्रवादी कांग्रेस पार्टी इति दलस्य अथ शिवसेना दलस्य सदस्याः च समाविष्टाः। उपवेशनानन्तरं संसद परिसरे वार्ताहरैः सह सम्भाषमाणा शिवसेना सांसद ज्योति सावित्री नागनाथ वाघमारे इत्येषा प्रावोचत् यत् प्रधानमन्त्रिणा संसदि अनुक्षणं जायमानेषु व्यवधानेषु गहनचिन्ता प्रकटीकृता। सा अकथयत् यत् प्रधानमन्त्रिणा अवलोकितं यत् निरन्तरस्थगनेन व्यवधानेन च नवनिर्वाचिताः प्रतिभाशालिनश्च सदस्याः सदने स्वकीय विचारान् उपस्थापयितुं नैव पारयन्ति। प्रधानमन्त्री नरेन्द्र मोदी श्वः इण्डियन इन्स्टिट्यूट ऑफ टेक्नोलॉजी इति संस्थायाः 75वें दीक्षांत समारोहे भागं भजिष्यति। प्रधानमन्त्री श्रीमोदी 3,000+ छात्रान् सम्बोधयिष्यति, येषु 87.5% शोधच्छात्राः समाविष्टाः। अत्रावसरे श्रीमोदी मेधाविभ्यः छात्रेभ्यः संस्थायाः प्रतिष्ठितानि सम्मानानि प्रदास्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य नवदिल्ल्याः राष्ट्रपति भवने 25वें 2000वर्षस्य संत कबीर हस्त निर्मित तन्तुकला पुरस्कारान् राष्ट्रिय हस्त निर्मित तन्तुकला पुरस्कारान् च प्रदत्तवती। हस्तशिल्पिनां कलात्मकतां नवीनतां भारतीय परम्परायाः संरक्षणे तेषां योगदानञ्च सम्मानयितुम् आहत्य 22 पुरस्काराः, 3 संतकबीर पुरस्काराः, 21 च राष्ट्रिय पुरस्काराः समर्पिताः। अस्मिन् अवसरे भारतस्य समृद्ध न्यासस्य सम्माननाय 4 स्मरणीय प्रैषचटिकाः अपि विमोचिताः। राष्ट्रपतिः देशस्य वस्त्र शिल्पेभ्यः उद्यमेभ्यः छात्रेभ्यः अथ अस्य क्षेत्रस्य समस्त जनसमुदायाय च शुभकामनाः प्रदत्तवती।
मैं देश के प्रतिभाशाली बुनाकारों, डिजाइनरों, उद्यमियों, विद्यार्थियों और भारत के हथकरघा क्षेत्र से जुड़े सभी लोगों को बहुत बहुत शुभकामनाएं देती हूँ।
विदेशमन्त्री डॉ एस जयशंकर न्यगादीत् यत् पाकिस्तान देशेन सह भारतस्य सम्बन्धाः केवलं आतंकवाद मुक्तौ एव अग्रे सारयितुं शक्यन्ते। अद्य लोकसभायाम् एकस्मिन् लिखितोत्तरे डॉ जयशंकर स्पष्टीकृतवान् यत् पाकिस्तान अद्यापि अतिसीम्नि भारतं विरुध्य आतंकवादं अस्त्ररूपेण उपयुङ्क्ते। अद्य भारतस्य उत्तर पश्चिम भागेषु अतिवृष्टिः अजायत। भारतर्तु विज्ञान विभागेन अद्य नवदिल्ल्यां मध्यमतः तीव्र वृष्ट्यै पीतवर्णपरा संचेतना प्रख्यापिता। कोझिकोडे, कन्नूर, वायनाड, कासरगोड क्षेत्रेषु साम्प्रतं रक्तवर्णपरा संचेतना प्रख्यापिता। अथ क्रीडा वार्तासु। भारतस्य ग्रैंडमास्टर आर प्रज्ञानन्द अमेरिकादेशे आयोजितायां ग्रैंड चेस टूर सेंट लुइस रैपिड एंड ब्लिट्ज इत्यस्यां प्रतियोगितायां विजयं प्राप्तवान्। 20-वर्षीय प्रज्ञानन्द पेनल्टी मेट इत्यस्मिन् चक्रे उज्बेकिस्तानस्य ग्रैंडमास्टर जावोखेर सिंदारोव इत्यनेन सह स्पर्धां समीकृत्य विजयं सुनिश्चितवान्। बैडमिंटन क्रीडायां भारतस्य क्रीडिके रक्षिता रामराज अथ अश्मिता चालिया च अद्य दक्षिण कोरिया देशस्य आसन नगरे आयोजितायाः कोरिया मास्टर्स इत्यस्याः स्पर्धायाः महिलैकल वर्गे उपान्त्यचक्रे प्रवेशम् अलभिताम्। अश्मिता चालियाः जापान देशस्य क्रीडिकां हिना अकेची इत्येतां पराजित्य उपान्त्यचक्रे प्रवेशम् अकरोत् इति वार्ताः।